भूयच्च सदवार्षिक्या मनावृष्ट्या मनम्बसी मुनिभिः संस्थिता भूमौ सम्भविष्याम्ययो निजा ततश्शतेन नेत्राणां निरीक्षिष्यामि यन्मुनि कीर्तयिष्यन्ति मनुजां सदाक्षीमिति मां ततः तदोऽहमखिलं लोकमात्मदेहसमुद्भवैं परिष्यामि सुरासाकैरावृष्टे प्राणधारकैः शाकम्परीति विख्यातिं तथा यास्याम्यहं भुवि तत्रैव च वदिष्यामि दुर्गमाख्यं महासुरम् दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति पुनश्चाहं यथा भीमं रूपं कृत्वा हिमाचले रक्षांसि वक्षयिष्यामि मुनीनां त्राणकारणात् तथा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः भीमादेवीति विख्यातं तन्मे नाम भविष्यति यतारुणाख्यत्रैलोक्ये महापादां करिष्यति तथाहं ब्रामरं रूपं कृत्वा सङ्ख्येय षट्पदं त्रैलोक्यस्य हितार्थाय वदिष्यामि महासुरं ब्रामरीति च मां लोकास् तथा स्तोष्यन्ति सर्वतः इत्थं यथा यथा पादा दानवोत्ता भविष्यति तदा तदा वदीर्याहं करिष्याम्यरिशं क्षयम् ॐ ॐ जय जय श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्त्रे देवी महात्म्ये एकादशो अध्यायः सम्पूर्णम्।